श्री सीतारामचंद्राभ्याम नमः। श्रीमद्वाल्मीकि रामायणम बालकांडम षट्षष्टितमः सर्गः।
अतः प्रभाते विमले कृतकर्मा नराधिपः विश्वामित्रं महात्मानं आजुहाव सराघवं तमर्चयित्वा धर्मात्मा शास्त्रदृष्टेन कर्मणा राघवौ च महात्मानौ तदा वाक्यम् उवाचः। भगवन् स्वागतं तेस्तु किं करोमि तवानः भवानाज्ञापयतु माम ज्ञाप्यो भवता ह्यहम् एवमुक्तः स धर्मात्मा जनकेन महात्मना प्रत्युवाच मुनिश्रेष्ठो वाक्यं वाक्यविशारदः। पुत्रौ दशरथस्येमौ क्षत्रियौ लोकविश्रुतौ द्रष्टुकामौ धनुः श्रेष्ठं तदेत्वयै तिष्ठति एतद्दर्शय भद्रं ते कृतकामौ नृपात्मजौ दर्शनादस्य धनुषो यथेष्टं प्रतियास्यतः। एवमुक्तस्तु जनकः प्रत्युवाच महामुनिं श्रूयतामस्य धनुषो यदर्थम् इह तिष्ठति देवरात इति ख्यातो निमिर्ज्येष्ठो महीपतिः न्यासोऽयं तस्य भगवन् हस्ते दत्तो महात्मनः। दक्षयज्ञवधे पूर्वं धनुरायम्य वीर्यवान् विध्वंस्य त्रिदशान् रोषात् सलीलम् इदमब्रवीत् यस्मात् भागार्थिनो भागं न कल्पयत मे सुराः वराङ्गानि महार्हाणि धनुषा शातयामि वः। ततो विमनसः सर्वे देवा वै मुनिपुङ्गव प्रसादयन्त देवेशं तेषां प्रीतो भवद्भवः प्रीतियुक्तस्तु सर्वेषां ददौ तेषां महात्मनां तदेतद्देवदेवस्य धनुरत्नं महात्मनः। न्यासभूतं तदा न्यस्तम् अस्माकं पूर्वजे विभौ अथ मे कृशतः क्षेत्रं लाङ्गलादुत्थिता ततः क्षेत्रं शोधयता लब्धा नाम्नासीतेति विश्रुता भूतलादुत्थिता सा तु व्यवर्धत महात्मजा। वीर्यशुल्केति मे कन्या स्थापिते यमयोनिजा भूतलादुत्थितां तां तु वर्धमाना ममात्मजाम् वरयामासुरागत्य राजानो मुनिपुङ्गव तेषां वर्यतां कन्यां सर्वेषां पृथिवीक्षितां। वीर्यशुल्केति भगवन् न ददामि सुतामहम् ततः सर्वे नृपतयः समित्य मुनिपुङ्गव मिथिलाम् अप्युपागम्य वीर्यं जिज्ञासवस्तदा तेषां जिज्ञासमानानां शैवं धनुरुपाहृतम् न शेकुर्ग्रहणे तस्य धनुष्तोलनेऽपि वा तेषां वीर्यवतां वीर्यम् अल्पज्ञात्वा महामुने प्रत्याख्याता नृपतयः तन्निबोध तपोधन ततः परम कोपेन राजानो मुनिपुङ्गव अरुन्धन् मिथिलां सर्वे वीर्यसन्देहमागताः आत्मानम् अवधूतं मे विज्ञाय नृपपुङ्गवाः रोषेण महताविष्टाः पीडयन् मिथिलां पुरीं ततः संवत्सरे पूर्णे क्षयं यातानि सर्वशः साधनानि मुनिश्रेष्ठ ततोऽहं भृशदुःखितः ततो देवगणान् सर्वांस्तपसाहं प्रसादयम् ददुश्च परमप्रीताश्चतुरङ्गबलं सुराः ततो भगना नृपतयो हन्यमाना दिशो ययुः अवीर्या वीर्यसन्दिग्धाः सामात्याः पापकारिणः तदेतन्मुनिशार्दूल धनुः परमभास्वरम् रामलक्ष्मणयोश्चापि दर्शयिष्यामि सुव्रत यद्यस्य धनुषो रामः पूर्यादारोपणं मुने सुतामयो निजां सीतां दद्यां दाशरथेरहम् इत्यार्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे षट्षष्टितमः सर्गः।